एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दहाल। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन अद्यापि देशस्य विभिन्न क्षेत्रेषु अत्यधिक वृष्टेः सम्भावना स्थिति हेतोः उच्चैः सावधानताम् अवलम्बितुम् सर्वे नागरिकाः अनुरुद्धाः वर्तन्ते। जलवायु वातावरण विज्ञान विभागस्य पूर्वानुमान महाशाखाया अनुसारेण अद्य रविवासरे अपि कोशी गण्डकी लुम्बिनी सुदूरपश्चिम प्रदेशानां पर्वतीय क्षेत्रेषु तराई क्षेत्रस्य कतिपय स्थानेषु च अत्यधिक वृष्टेः सम्भावना वर्तते। तथैव महाशाखया देशस्य हिमालयेषु पर्वतीयेषु च भूभागेषु कोशी बागमती लुम्बिनी सुदूरपश्चिम प्रदेशानां प्राय स्थानेषु च भीषण वृष्टेः अतिवृष्टेश्च सम्भावना स्थिति ज्ञापितं वर्तते। प्राधिकरणेन एतदवधौ अत्यावश्यक कार्येण विना रात्रौ यात्रां न कर्तुं संकटयुत मार्गेषु रात्रौ यातायात साधनानां सञ्चालनं निषेद्धुं च अनुरुद्धं वर्तते। विशेषतः थर इलाम झापा संखुवासभा तेरथुम भोजपुर खोटाङ धनकुटा सिन्धुली ललितपुर काभ्रेत सिन्धुपाल्चोक नुवाकोट चितवन गोर्खा लमजुङ कास्की तनहु पर्वत बागलुङ म्याग्दी स्याङ्जा जनपदेषु रात्रौ यातायात साधनानां सञ्चालने सावधानताम् अवलम्बितुम् सर्वे अनुरुद्धाः वर्तन्ते। अत्रान्तरे राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन अत्यधिक वृष्टेः सम्भावना युतानां त्रयोविंशतेः जनपदानां मार्गेषु रात्रिकालिक यातायात साधनानां सञ्चालनं निषेद्धुं जनपद सुरक्षा समितयो निर्दिष्टाः वर्तन्ते। वर्षाज विपद प्रतिकार्यादेश केन्द्रस्य ह्यस्तनोपवेशेन एवं जनपदेषु परिस्थितेः अनुसारेण यदा कदापि यातायात साधनानां सञ्चालनं निषेद्धम् अन्य जनपदेषु अपि उच्चैः सावधानताम् अवलम्बितुं च निर्णीतमस्ति इति प्राधिकरणेन ज्ञापितं वर्तते। उपवेशेन अत्यधिक वृष्टेः पश्चात् तत्र स्थानेषु जलविप्लव भूस्खलन भूकर्तनादि विपदां सम्भावना भवति इत्यतः प्रतिकार्याय उद्धाराय च परावस्थायां स्थातुं स्तरत्रयस्यैव सुरक्षा निकायाः स्थानीय स्तराः अन्य सम्बद्ध निकायाश्च अनुरुद्धाः वर्तन्ते। काष्ठमण्डप जनपद प्रशासन कार्यालयेन अधिक वृष्टेः कारणेन जलविप्लव भूस्खलनादीनां जलमग्नतायाश्च संकटस्य वर्धनात् काष्ठमण्डपोपत्यकायाः यात्रायां विशेष सावधानताम् अवलम्बितुं सर्वे नागरिकाः अनुरुद्धाः वर्तन्ते। जनपद प्रशासन कार्यालयेन ह्यो यात्रायाः सञ्चेतनां सार्वजनिकृत्य प्राधिकरणस्य अद्ययावत् अत्यधिक वृष्टेः सूचनामाधृत्य काष्ठमण्डपोपत्यकायाः यात्रायां सावधानताम् अवलम्बितुम् रात्रौ यात्रां न कर्तुम् अत्यावश्यकतायां सत्यां सूक्ष्मतः मार्गावस्थां ज्ञात्वैव यात्रां कर्तुम् च नागरिकाः अनुरुद्धाः वर्तन्ते। अविरलवृष्टेः कारणेन देशस्य विभिन्न भागेषु जलविप्लवस्य भूस्खलनानां च पश्चात् राजमार्गाः अवरुद्धाः वर्तन्ते। नेपाल प्रहरीण अनुसारेण खुरकोट नेपाल थोक कटुञ्जे बेसी कान्तिलोकपथ मेची राजमार्ग सालझण्डी ढोरपाटन अरणीको राजमार्गाः भूस्खलनानां पश्चात् अवरुद्धाः वर्तन्ते। एवमेव बागलुङ जनपदस्य जैमिनी नगरपालिकायाः अष्टमवडा क्षेत्रस्य बेलवगर स्थाने भूस्खलनानन्तरं कालीगण्डकी तटीय मार्ग पूर्णतः अवरुद्धो वर्तते। नेकपा एमाले दलस्य बागमती प्रदेश संसदीय दलेन प्रदेश सर्वकारे प्रतिनिधित्वं कुर्वद्भ्यो मन्त्रिभ्य त्यागपत्रं प्रदातुं निर्देशनं प्रदत्तं वर्तते। एमाले दलस्य बागमती प्रदेशस्य संसदीय दलस्य नेता जगन्नाथ थपलिया मन्त्रीपदात् त्यागपत्रं प्रदाय सर्वकारात् बहिर्भवितुं पूर्वेद्यो मन्त्रिणः निर्दिष्टवान् वर्तते। अन्य प्रदेशेषु इव सत्ताया सहकार्य नेपाली कांग्रेस नेकपा एमाले दलयोर्मध्ये विहिते गठबन्धने विवादस्य उत्पन्नस्य पश्चात् बागमती प्रदेश सर्वकारात् बहिर्भवनस्य निर्णय एमाले दलं प्राप्तमस्ति इति ज्ञापितं वर्तते। मुख्यमन्त्रिणा इन्द्रबहादुर बानिया इत्यस्य नेतृत्वस्य प्रदेश सर्वकारेण मन्त्रालयस्य संख्यां चतुर्दशतः न्यूनीकृत्य अष्टसंख्यायां प्रापयितुं विहितस्य निर्णयस्य परह्यो दिवसात् क्रियान्वयनानन्तरम् अष्टाभ्यो जनेभ्य मन्त्रालयानां दायित्वं निर्धारितम् अस्ति चेद् षड् जनाः विना विभागीय मन्त्रिणो निर्धारिताः वर्तन्ते। डडेलधुरा जनपदस्य अमरगढ़ी नगरपालिकाया सप्तमवड़ा क्षेत्रस्य खसने खान स्थाने जीपयानस्य दुर्घटनायां जनद्वयं मृतमस्ति चेत् त्रयो जनाः आहताः वर्तन्ते। धनगढ़ीतः दार्चुला स्थानाय प्रस्थितं बोलेरो जीपयानम् इह दुर्घटितं सद् दार्चुला जनपदस्य अपि हिमाल ग्रामपालिकाया प्रथमवड़ा क्षेत्रस्य पञ्चवर्षीय शुभम लोथ्याल विंशतिवर्षीय उम लोथ्याल च मृतौ इति डडेलधुरा जनपद प्रहरी कार्यालयस्य प्रमुख वरूण बहादुर सिंह असूचयत। जीपयानम् आसन्न 500 मीटर मितम् अधः निपत्य दुर्घटितमिति प्रहरिणा ज्ञापितम् वर्तते। राष्ट्रिय मानवाधिकार आयोगेन कुशुण्डा प्रवृत्तिनाम् लोपोन्मुख समुदायानाम् संरक्षणाय उत्थानाय सशक्तिकरणाय विकासाय च एकीकृत कार्ययोजनाम् निर्माय क्रियान्वेतुम् सर्वकारः परामृष्टो वर्तते। आयोगेन कुशुण्डा समुदायस्य मानवाधिकाराणाम् अवस्थायाः अध्ययनस्य प्रतिवेदने अस्य लोपोन्मुख समुदायस्य संरचनात्मक सुधारस्य कृते संघ प्रदेश स्थानीय सर्वकाराः पृथक् पृथक् परामृष्टाः वर्तन्ते। नागरिकाग्रण्य देवेन्द्रराज पाण्डे विदस्य ह्य पाशुपतार्य घट्टे अन्त्येष्टि विहिता वर्तते। नागरिकाग्रण्य पाण्डे विदस्य 88 वर्षाणां वयसि परह्य सायं स्वस्यैव निवासे निधनं सम्भूतम् आसीत्। इति समाचाराः।